अभिधस्तेरवस्पृतम् इवम् रथेन विमलाय सिन्धुरन्यो हतःपुरमित्रस्य योषणाम् इवम् बद्रिमद्या गच्छतम् युवम् सुषूतम् चक्रतःपुरम् भजे इवम् विप्रस्य जरनामो वेजुषः पुनः करेरगृणतम् युवद्वजाः युवम् वन्दनमृश्य दादुतो युवम् सद्यो विश्वरामेत वेकृतः इमम् रेभम् रेषणा गुहाहितमुदैरयम् ममांसमश्विना युवमृदीशमुदसप्तमत्र जवो मन्वन्तम् चक्रतः सप्तभद्रये इवम् श्वेतम् वेदवेश्विना स्वम् नवभिर्वादीर्नवदी च वादिनम् चर्कृत्यम् ददसद्रापयत्स गम्भगन्नभ्यो हव्यम् मयोभुवम् कथम् राजानावदिते कुतश्चरणाम्भो अस्नोदिदृशम् न गद्भयम् यमश्विना सुगवारुद्रवर्तने गुरो रथम् कृतः पत्न्या सह आतेन जातम् मनसो जवीयसा रथम् जम्वामृभवश्चक्रश्विना यस्य योगे दुहिता जायते दिव उभे अहानि सुदिने विवस्रतः ्यायातम् जयुषापि पर्वतमपिम्पदम् सजवे धेनुमश्विना मृगस्य चिद्वर्तिकामन्तरा स्याद्युवम् सजीभिर्गृहितामामुञ्चतम् एतम् वाम् सोमामश्विनावकर्मा तक्षाममृगाभो नरथम् ज्ञामृक्षामयोषा नाम्नमर्जे नित्यम् न सूनम् तनयम् दधानाः ्यान्तम् कुहकोहवान्नराजुमन्तम् सुपिताज भूषति रातर्यावानम् विभ्वम् विषेऽपि सेवस्तोर्वस्तोर्वहमानम् धियासमि कुहश्चिद्दोषा कुहस्तोरश्विना कुहाभिवित्तम् करतः कुहोषतुः को वाम् सयुत्राभिधवे देवरम् मर्यम् न योषा कृणुते सदस्थाजरेधेरणे वकापयावस्तोर्वस्तोर्यदागच्छतो गृहम् कस्य भस्रावध कस्य वानराराजपुत्रे वसवनावगच्छतः युवा मृगेव वारणा मृगण्यवो दोषावस्तोर्हविधानि पयामहे युवम् होत्रा मृदुता जुह्वते नरेशम् जनाय वहतः शुभस्पति युवाम् भ्रदोषावर्यस्विना यदीराज्ञभूते दुहिता वृच्छे वाम् नरा भूतम् मे अन्न उत भूतमत्तवे स्वावते रसिने सत्तवर्वते युवम् कवीष्टपर्यस्विना रसम् विशो न कुत्सो जरिर्नसायतः युवोर्हवक्षापर्यस्विना मध्वासा भरतनिष्कृतम् न योषणा युवम् भुज्यम् युवमश्विना वसम् युवम् सिञ्चारमुसनामुदारसुः युवो रापरि सख्यमासते युवोरहमवासासुम् नमाचके युवम् कृशम् युवमश्विनाशयम् युवम् विधन्तम् विधवा मुरुष्यतः युवम् सनिभ्यस्तनयम् तमश्विनापव्रजमोर्मतः सप्तास्यम् यनिष्ठयोरापतयत्कनीनको विचारोहन् वीरुधोदंसना नो आस्मैरीयन्ते निवने वसिन्धभोस्मान्ने भवति तत्त्वनम् जीवम् रोदन्ति विमायन्ते अध्वरे दीर्घामनप्रसीदुम् दीधयुर्नराः वामम् पितृभ्योजयिदम् स मे रिरेमजःपतिभ्योजनाजः परिष्वजेः न तस्य विद्मतदुषप्रवोचतयुवाह यद्योपत्याः क्षेदियोनिषु प्रियो श्रीयस्य वृषभस्य रेतिना गृहङ्गमेवाश्विना चतुष्मसि आवामगम् सुमतिर्वाजिनीव सोऽन्यश्विना हृत्सु कामा अयम् सता अघोरम् गोपामि धुना शुभस्पति प्रियार्घ्यम् नो दुर्याम् असीमहि कामन्दसारामनोषो दुरो नः धत्तम् प्रयम् सहवीरम् वचस्वे कृतम् तीर्थम् सुप्रभाणम् शुभस्पती स्थानम् पादेष्टामपदुर्मतिम् भरम् स्वीरद्यकतमा स्वस्विना विक्षुतस्रामादये शुभस्पती कलीन्ये मे कतमस्य जग्मदुर्विप्रस्य भाजमानस्य वा गृहम् समानमुच्यम् पूर्वहूतमुच्या अमृतम् त्रिचक्रम् सव नागनिग्मतम् परिज्ञानम् विदत्यम् सुभक्तिभिर्भयम् युषो हवामहे स्वातर्युजम् न सत्याधिष्ठतः प्रातर्यावानम् मधुवाहनम् रथम् विश्वयेन गच्छ सोयज्वरीर्नरागीरेश्चिद्यज्ञम् होत्रे मन्दमश्विना आचार्यम् वा मधुपाणिम् सुखस्य मग्निहम् वा धृतदक्षम् दमोनसम् विप्रस्य वा यत्समानानि गच्छ सोदायातम् मधुपेयमश्विना हस्ते वसुप्रातरम् राजमस्य भूषम् प्रभारास्तोमस्मै वाचाविप्रास्तवाच मर्यो निरामयजरितः सोमरिन्द्रम् दोहेन कामुपशिक्षासकायम् प्रबोधयजरितर्जालमिन्द्रम् कोशम् न पूर्णम् वसूनाञ्जेष्टमाच्या वयमघदेयायसूरम् किमङ्गत्वा मघवन् भोजमाहुशिषीहिमाशिशयम् त्वा शृणोमि आप्नस्वतीमधीरस्तु चक्रवसुविदम् भगमिन्द्राभरानः त्वाञ्जना मम सत्येष्विन्द्रदन्तस्थानाभिह्वायम् ते समीपे अत्रायुषम् कृणुते यो हविष्मान्नासन्वता सख्यम् वष्टिशूराः धनम् न स्पन्द्रम् वरुणम् यो अस्मै दीव्रान् सोमान् वा सुनो जिप्रयस्वान् अस्मै शत्रून् सुसुकान् प्रातरम् भवनिष्वान् युपतिहन्ति वृत्रम् यस्मिन् वयम् दधिमासम् समिन्द्रेयश्विश्राय मघभाकामस्मे आराचित्सम्भजतामस्य शत्रोऽन्यस्मै जिम्नाजन्यानमन्ताम् आराच्छत्रुमपबाधस्वरोदमुग्रो यस्वम्भः पुरुहूततेन अस्मे देहि यममद्गोमादिन्द्रगृधीयम् चरित्रे वाचरत्नाम् त्रयमन्तर्वेण समासो आत्मन् तीव्राः सोमा बहुलान्ताः स इन्द्रम् नाह दामानम् मघवानियम् सन्निसन्दतेव हतिभूरि वामम् उत प्रहामाति दीव्या जयाति कृतम् यच्छग्निवीचिनोति काले यो देवका मौनधनारुणद्धितमित्तम् राजा सृजति स्वधावान् गोभिष्टदेवामादिम् दुरे भाम्यवे नक्षुभम् पुरुहूतविस्वाम् अजम् राजाभिप्रथमाधनान्यस्माकेन वृजनेनाजयेम बृहस्पतिम् नः परिपातु पश्चादुतोत्तरस्मादधराधायोः इन्द्रः पुरस्तादुतमध्यतो नः सखासखिभ्यो वरीवक्रमोतु अच्छामयिन्द्रम् मदय स्वर्भिः सद्रीचेर्विश्वावुषदीरनूषत परेष्वजम् ते जन यो यथा पतिम् वर्यम् न सुन्ध्यम् मघवानमूदये नघात्वद्रिगपवेति मे मनस्मे यत्कामम् कुरुहूतशिश्रय राजेवदस्मनिहरोहि बर्हिष्यस्मिन् सोमे वपानामस्तुते ऋषो वृजिन्द्रो अमाते ऋतक्षुधस्य यद्राजो मघभावस्वजीषते तस्येदिमे प्रभने सप्तसिन्धभोपयो वर्धन्ति वृषभस्य सुष्मिनाः अजो न वृक्षम् सोपलासमासदम् सोमास इन्द्रम् मन्दिनश्च मूषदाः श्रीरामणीकम् सव सादविद्युदद्विदत्स्वा अर्मण भेज्योतिरार्यम् कृतम् न स्वग्ने विचीनोति देवाने संवर्गम् जन्मघवासूर्यम् जयत् न ददते अन्यो अनो वीर्यम् सघन्न पुराणो मघवन्नो तनूतनः विषम् विषम् मघवापर्यसायतजनानाम् धेना अपचाकसदृशा यस्याः शक्रस्सवने शरण्यतिसतीव्रैः सोमैः सहते मृतम् यतः आपोलसिन्धोमभियत्समक्षरम् सोमासैन्द्रम् कुल्यायैव हृदम् वर्धम् दिवि प्रामहो अस्य सादनेजवन्नवृष्टिर्दिव्येन दानूना ऋडानकृद्धपादयद्रजस्वायो अर्यपत्नीरकृणो जिमा अपः सन्वते मघवा जीरदानवे विन्दज्यो निर्मनवे हविष्मते उज्जायताम्बरसज्ज्योतिषा सह भूजाजितस्य सुदृढा पुराणवत् विरोजतामनुषो भारणा शुचिस्वा अन्नशुक्रम् सुचितसत्त्वादिः गोभिष्टरे मामतिम् दुरे वाम्यवे नक्षुधम् पुरुहूत विस्वाम् अयम् राजाभिक्कसमाधनान्यस्माकेन भृजनेनाजयेम गृहस्पजन्नः परिपातु पश्चादुतोत्तरस्मादधरादधायोः इन्द्रः पुरस्तादुतमध्यतो नः सखासखिभ्यो वरीवक्रणोतु आजात्यन्द्रस्वप धर्मदा यजो धर्मानातु तु जानस्तु विश्वान् प्रद्वक्षाणोऽतिविश्वासहांस्य पारेण महता वृष्ण्येन सुष्मामारतस्विजमाहरीते विम्यक्षवज्रो नृपते गभस्तौ सीभम् राजन् सुपताया शर्वाङ्गे पुरुषो वृष्ण्याणि ेन्द्रवाहो नृपतिम् वज्रवाहमुग्रमुग्रासस्तविषासयेनम् नरत्वक्षसम् ऋषभम् सत्यसूक्ष्ममेव स्पद्रासधमादो वहन्तु एवावतिम् रोनसा चंसते रसमूर्जस्कम्भम् तरुण आवीषायसे ओजः कृष्णसङ्ग्रे भायत्वे अप्यसो यथा के निपाना विनो वृधे गमन्नस्मेव सोऽन्याहिसंशेषम् स्वाशिषम् फलमायाहि सोऽभिनाः त्वमीशिभेतास्मिन्नासत्सि बर्हिश्च नाधिष्यातव पात्राणि धर्माणा रथक्रायम् प्रथमादेवभूतयो गृह्वरस्वपस्यानि दुष्कराः ज्ञियाम् न वा मारुहवीर्मैवतेऽन्यविसन्तकेपयः एवैवापाकपरे सन्दुधूर्यो स्वायेषाम् दुर्युज आयुजुद्रे इच्छाये प्रागुपरे सन्ति रावणे गुरूणि यत्र वयुनाः निभोजना गिरीम् लज्वाङ्गेयमानाम् अधारयद्यौक्रम् तदन्तरिक्षाणि कोपयत् समीचीने धिषणे विष्कभायति वृष्णप्रीत्वामदमुक्तानि संसति इमम् विभर्मि सुकृतम् ते अङ्कुशम् येनाजासि मघवम् छपारुजाः अस्मिन् सुते समाने अस्तोक्यम् सुरजिष्टो माघवन् बोध्याभगः गोभिष्टरे मामातिम् दुरे वाम् जवे नक्षुधम् पुरुहूत विस्वाम् वयम् राजाभिप्रथमाधनान्यस्माकेन वृजनेनाजयेम गृहस्पतिर्नः परीपातु पश्चादुतोत्तरस्मादधराधायोः इन्द्रः पुरस्ता ऋतमध्यतो नः सखा सखिभ्यो वरीव कृणोतु दिवस्परि प्रथमम् यज्ञे अग्निरस्मद्वितीयम् परीजातवेदाः तृतीयमप्सुरुमनाजस्रमिन्धानयेनम् चरते स्वाभिः विद्मादे अग्ने त्रयधा त्रयाणि विद्मादेधामविभृता पुरुत्रा यद्मादे नाम परमम् गुहायद्विद्मातमुत्संयत आजगन्थ समुद्रे त्वा रमणा अप्स्वा अन्तर्नृचक्षायीधे दिवो अग्नबूधन् तृतीये त्वा रजसितश्चिवांसमपामुपस्थे महिषा वर्धन् अक्रन्दरग्निस्तनयन् निभज्योः क्षामाले निहद्वीरुधः समञ्जन् सद्यो यज्ञानो विहीनिद्धो अक्षदारोदसी भानुना भात्यन्तः श्रीरामोदारो धरुणो रयीणाम् मनीषाणाम् प्रार्पणः सोमगोपाः वसस्सो नः सहसो अप्सुराजा विभात्यग्रवृषसा निधानः विश्वस्य केतुर्भुवनस्य गर्भारोदसी अवृणाज्याजमानः एलम् इरद्रीमभिनत्वरायञ्जनायदग्निमयजम् तपञ्च उषिक्पावको रजस्सु मेधामत्तेष्वग्निरमृतो निधायि इयर्ति धूममारुषम् परिभ्रदुच्छुक्रेण सोतिषाद्यामि नक्षन् दिशानो रुक्मपुर्ह्याव्याद्यौ दुर्मर्षमाय श्रियेरुचानः अग्निरमृतो अभवद्वयोभिर्यदे नन्द्यौ जनयः सुनेताः यस्ते अद्य गणवद्भद्रशोचे भूपम् देवधृतवन्तमग्ने प्रदम्नाय प्रतरम् वस्यो अच्छाभिसुम्नम् देवभक्तम् यविष्ट आलम्भजसौ श्रवसेष्वग्नमुक्थमुक्था भजसस्यमाने प्रियः सूर्ये प्रियो अग्नभवात्युज्जातेन भिनदरुज्जनित्वैः त्वामग्ने यजमाना अनुज्योन्विश्वावसूदधिरेवार्याणि त्वया सहद्रवेण मिच्छमाना मृगङ्गोमन्तमुषिजो विवौरुः अस्ताव्यग्निर्नराम् सुसेवो वै स्वानरऋषिभिः सोमगोपाः अद्वेद्या वा पृथिवीहूवे मदेवा धत्तरयिमस्मे सुवीरम् भद्रम् न अपि वातजमनाः ओ हरिः ओ प्रवोचा जातो महान्न भोविन्द्रषद्वासीदतपामुपस्थे धैर्योधायि स देवजाम् श्रियन्तावसूनि विधते तनूपाः इमम् विधन्तो अपाम् सधस्ते प्रसन्न नष्टम् पदैरनुग्मन् सुवाचनम् तमुषियो नमोऽभिरिच्छन्तो धीराभृगोविन्दन् इमम् त्रितो भूर्य विन्दरिच्छन् वै भूवसो मूर्धन्यज्ञायाः से वृधो जातः हर्म्येषु नाभिर्युवा भवति लोचनस्य मन्त्रम् होतारमुषिजो नमोऽभिः प्राञ्चम् यज्ञम् नेतारमध्वराणाम् दिशामकृण्वन्नरतिम् पावकम् हव्यवाहम् दधतो मानुषेषु प्रभोज्जयन्तम् महाम् विबोधाम् मूरामूरम् पुराम् धर्माणम् नयन्तो गर्भम् वनाम् धियम् दुर्हिरिस्म श्रृम्नार्वाहम् धनर्थम् निपस्याशुत्रितस्त भोजम् परिवीतो यो नौ सीददन्तः अतः सङ्गृभ्याभिषाम् दमो नाभिधर्मणा यन्त्रैरीयते नृन् अस्याजरासो दमा मरित्रा अर्चद्धूमासो अग्नयः पावकाः ಸಿದ್ಧಿಗಸ್ಮಾತ್ರಸೋಭರಣ್ಯವೋ ಸಮಾಜವಸ್ಸುಚರಿಂ ತಂಬಾಭಕಂ ಮಂತ್ರಂ ಹೋತಾರಂ ದಧಿರೇ ಜಜಿಷ್ಟಂ ಜಾವಾಜವಗ್ನಿಂ ಪೃಥಿವೀ ಜನಿಷ್ಠಾಮಾಪಸ್ತ್ವಷ್ಟಾ ಭೃಗಭೋಜಂ ಸಹೋಭಿಃ ಜೀಳೇಯಂ ಪ್ರಸಮಂ ಮಾಲರಿಸ್ವಾ ದೇವಾಸ್ತಧಕ್ಷುರ್ಮಲಭೇಜತ್ರಂ ಯನ್ವಾ ದೇವಾದಧಿರೇಹಂ ಯಮಾಹಂ ಪುರಸ್ಕೃಹೋಮಾನುಷಾಸೋ ಜತ್ರಂ ಸುಭದೇವಯೋಧ್ವಯಸಿ ಪೂರ್ವೀ ದಕ್ಷೀಣಮಿಂದ್ರಹಸ್ತಂ ವಸೂಯವೋ ವಸುಪದೇ ವಸೂನಾ ಗೋಪಾದಿಂ ಸೂರಗೋ ನಾಮಸ್ಮಭ್ಯಂ ಚಿತ್ರಂ ಮೃಷಾನಂ ಹೃಯಿಂದಾಃ ಸ್ವಾಯುಧಂ ಸ್ವವಾಸಂ ಸುನೀಧಂ ಚತುಸ್ಸಮುದ್ರಂ ಧರುಣಂ ರಜೀನಾಂ ಸಕೃತ್ಯಂ ಸಂಸ್ಯಂ ಭೂರಿವಾರಮಸ್ಮಭ್ಯಂ ಚಿತ್ರಂ ವೃಷಾನಂ ರಜಿಂದಾಃ ಸುಬ್ರಹ್ಮಾಣಂ ದೇವವಂತಂ ಬೃಹಂತ ಮುರುಂಗಭೀರಂ ಋತುಭುದ್ರಮಿಂದ್ರ ಶ್ರುತರೇಷಿಮುಗ್ರಮಾಭಿಮಾದಿಗಾಹಮಸ್ಮಭ್ಯಂ ಚಿತ್ರಂ ವೃಷಾನಂ ರಜಿಂದಾಃ ಸನದ್ವಾಜಂ ವಿಪ್ರವೀರಂ ತರುತ್ರಂ ಧನಸ್ಮೃತಂ ಸುಸುವಾಂಸಂ ಸುದಕ್ಷಂ ಸ್ಯುಹನಂ ಪೂರ್ಭಿತಾಮಿಂದ್ರ ಸತ್ಯಮಸ್ಮಭ್ಯಂ ಚಿತ್ರಂ ವೃಷಾನಂ ರಯಿಂದಾಃ ಅಶ್ವಾವಂತಂ ರಚಿನಂ ವೀರವಂತಂ ಸಹಸ್ರಿಣಂ ಸಚಿನಂ ವಾಜಮಿಂದ್ರ ಭದ್ರವ್ರತಂ ವಿಪ್ರವೀರಂ ಸ್ವರ್ಷಾಭಸ್ಮಭ್ಯಂ ಚಿತ್ರಂ ವೃಷಾನಂ ರಯಿಂದಾಃ ಪ್ರಸಪ್ತಗೋ ಮೃತಧೀತಿಂ ಸುಮೇಧಾಂ ಬೃಹಸ್ಪತಿಂ ಮತಿರಚ್ಛಾಲಿಗಾತಿ ಜಾಂಗಿರಸೋ ನಮಸೋಪಸದ್ಯೋಸ್ಮಭ್ಯಂ ಚಿತ್ರಂ ವೃಷಾನಂ ರಯಿಂದಾಃ ಮಣೀವಾನೋ ಮಮ ದೂತಾ ಸಯಂದ್ರಂ ಸ್ತೋಮಾಶ್ಚರಂತಿ ಸುಮತೀಯಾನಾಃ ಹೃದಿ ಸ್ಪೃಶೋ ಮನಸಾ ವಚ್ಚಮಾನಾಸ್ಮಭ್ಯಂ ಚಿತ್ರಂ ವೃಷಾನಂ ರಯಿಂದಾಃ ಯತ್ವಾಜಾಮಿ ದ್ರಧಿರನ್ನ ಇಂದ್ರ ಬಿಹಂತಾಂ ಕ್ಷಯಮಸ ಮಂಜನಾನಾಂ ಅಭಿರಜ್ಯಾವಾ ಪೃಥಿವೀ ಗೃಣೀತಾಮಸ್ಮಭ್ಯಂ ಚಿತ್ರಂ ವೃಷಾನಂ ರಯಿಂದಾಃ ಅಹಂ ಭೂಮಂ ವಸೋ ನಃ ಪೂರ್ವಸ್ಮತಿರಹಂ ಧನಾನಿ ಸಂಜಯಾಮಿ ಸಸ್ವತಃ ಮಾಂ ಗ್ರಾವಂತೇ ಪಿತರಂ ನಜಂದ್ರಭೋಹಂ ದಾಶುಷೇ ವಿಭಜಾಮಿ ಭೋಜನಂ ಪರಮಿಂದ್ರೋ ರೋಧೋ ವಕ್ಷೋ ಅಧರ್ವಣಸ್ತ್ರಿತಾ ಜಗಾಜನ ಜಮಹೇರಥಿ ಅಹಂ ದಸ್ಯಭ್ಯಃ ಪರಿಣಂ ನಮಾದದೇ ಗೋತ್ರಾಶಿಕ್ಷಂ ದಧೀಶೇ ಮಾದರಿಸ್ವನೇ ಮಹ್ಯಂ ತ್ವಷ್ಟಾ ವಜ್ರಮದಕ್ಷದಾಯಸಂ ಮಯಿ ದೇವಾಸೋ ನಿಜನ್ನ ವಿಕೃತಂ ಮಮಾನೀಕಂ ಸೂರ್ಯಸ್ಯೇವ ದುಷ್ಟರಂ ಮಾಮಾರ್ಯಂ ಧಿಕೃತೇನ ಕರ್ತೇನ ಚ ಅಹಮೇತಂ ಗವ್ಯಯಮಸ್ಯಂ ವಸುಂ ಪುರೀಷಿಣಂ ಸಾಜಕೇನಾಹಿರಣ್ಯಯಂ ಪುರುಸಹಸ್ರಾಣಿ ಶೀಸಾಮಿ ದಾಸುಷೇಜನ್ಮಾಸೋ ಮಾಸ ಭುಕ್ತಿನೋ ಅಮಂದಿಷೋ ಅಹಮಿಂದ್ರೋ ನ ಪರಾಜಿಜ್ಞಯಿಧನಂ ನ ಮೃತ್ಯಮೇವ ತಸ್ಥೇ ಕದಾಚನ ಸೋಮಮಿನ್ಮಾ ಸುನ್ವಂತೋ ಯಾಚ ತಾಪಸುನಮೇ ಪೂರವ ಸಖ್ಯೇರೀಷಾಧನ ಅಹಮೇತಾಂಚಾಶ್ವಸತೋದ್ವಾದ್ವೇಂದ್ರಂ ಜೇ ವಜ್ರಂ ಯುಧಜೇ ಕೃಣ್ವತ ಆಕ್ವಯಮಾನಾಂಗವಹನ್ಮನಾಹನಂ ದೃಢಾವದನ್ನ ನಮಸ್ಯುನ್ನಮಸ್ವಿನಃ ಅಭೀತಮೇಕಮೇಕೋ ಅಸ್ಮಿ ನಿಷ್ಟಾದಭೀದ್ವಾಗಿ ಮುದ್ರಜಃ ಖರಂತಿ ಖರೇನ ಪರುಷಾನ್ ಪ್ರತಿ ಹನ್ಮಿ ಭೂರಿ ಕಿಂ ಮಾ ನಿಂದಂತಿ ತತ್ರ ವೋ ನಿಂದ್ರಾಃ ಅಹಂ ಗುಂಗುಭ್ಯೋ ಅತಿಥಿಗ್ವಮಿಷ್ಕರಮಿಷಂ ನ ವೃತ್ರತುರಂ ವಿಕ್ಷುಧಾರಯಂ ಯತ್ಪರ್ನ ಯಜ್ಞ ಉತವಾಚರಂ ಜಹೇ ಪ್ರಾಹಂ ಮಹೇ ವೃತ್ರಹತ್ಯೇ ಅಸುಸ್ರವೀ रमेणमी साप्ययुषे भुजे भोज्यवामेषे सख्याकृणुतद्विदा यद्यम् यदस्य समिधेषु ब्रह्मयमादिदेनम् संस्य मुख्यम् करम् प्रणेमस्मिन् ददृशे सोमो अन्तर्गोपानेम माभिरस्त्रा कृणोति स जिग्मलिङ्गम् वृषभम् युयुत्सम् गृहस्थस्थौ बहुले बद्धो अन्तः आदित्यानाम् वसूनाम् रुद्रियाणाम् देवो देवानाम् नवीनामिधाम हेमा भद्राय समसे ततक्षुरपराजितमस्त्रितमशालम् अहम् दाम् कृणते पूर्व्यम् वस्वहम् ब्रह्म कृणवम् मह्यम् वर्धनम् अहम् भूवम् यजमानस्य रोदिताय ज्वलः साक्षिविश्वस्मिन् भरे माम् सुरेन्द्रम् नाम देवता दिवश्चग्मश्चापाम् च जन्तवाः अहम् न ईर्ष नाभिव्रता रघु अहम् वज्रम् सपसे दृष्ट्वा ददे अहमर्कम् कवये शिश्रथम् हसैरहम् कृत्स मामभिरुचिभिः अहम् दृष्णस्य स्नसि चावधर्यमम् नयो रर आर्यम् न मदस्य वे अहम् विदेव वेदसूङ्ग्रभिष्टये त्वग्रम् कुत्सायस्मदि भञ्चरन्धयम् अहम् भूपम् यजमानस्य राजनिर्णयद्भरे तु च येन प्रियाधिषे अहम् रन्धयम् मृगयम् सुतर्वणेयन्माजीहेतरयुना जनानुषके अहम् वेषम् नम्रमायवे करमहम् सव्यायमग्रेभिमरन्धयम् अहम् दयो नवभास्तम् बृहद्रसम् संवृत्रे भदासम् वृत्रहारूजम् यद्वर्धयम् तम् रचयन्तमानुषद्दूरे पारे रजसोरोचनाकरम् अहम् सूर्यस्य परीयाम् यासुभिप्रैतसेभिर्वहमानवोजसा जिन्मासावो मनुषाः निर्निदर्धकृषेदासम् कृत्यम् हसैः अहम् सप्तः नहुषो नहुष्टरः प्रास्रावयम् सवसा दुर्वसं यदुम् अहम् ज्ञा अन्यम् सहसा सहस्करम् न भव्राधतो न पतिम् च वक्षयम् अहम् सप्तस्रवतोधारयम् वृषाद्रवित्रः पृथिव्याम् शीरा अधि अहमन्नाम् शिवितीरामि शुक्रतुर्युधावीदम् मन वेघातुमिष्टये अहम् ददासुधारयम् यदा सुन देवश्च न त्वष्टाधारयदृशते स्वार्हङ्गभावोधस्तु भक्षणा स्वाधोर्मधुस्वात्यम् सोमभाषिरम् देवादेवान्द्रो विव्येण प्रच्छौत्रेण भगवाः सत्यराधाः विश्वेत्ता ते हरिवस्सति ओभिदुरासस्त्वयसो गृणन्ति रमो महे मन्दमानायाम् धसोर्जा विश्वानराज विश्वाभुवे इन्द्रस्य यस्य सुमघम् स होमहिश्रवो ब्रह्मम् च रोदसीस पर्यताः सोऽजिन्दसख्यानर्य इनस्तुतश्चकृत्य इन्द्रो मावते नरे विश्वासु धूर्षु वा जकृत्येषु सत्पते वृत्रे वाप्स्वा अभिसूरमन्दसे एते नर इन्द्रयेत जिषेयेतेः सुम्नम् स धन्या अभियक्षान् एते वाजाया सूर्यायहिन्विरेके अप्सुस्वा सूर्वरा सुपुंसे भुवत्वमिन्द्रब्रह्मणा महान् भुवो विश्वेषु सवनेषु यज्ञियाः भुवो नृसौत्नो विश्वस्मिन् भरे ज्येष्ठश्चमन्द्रो विश्वदर्शने अवानुकम् जायाञ्जज्ञमानसो महीन्द्रवो मात्राम् पृष्टयो विदुः असोऽनुकमजरो बद्धाश्च विश्वे देता समानादो दुमाग्रीषे एता विश्वासवनातु तुमग्रीषे स्वयं सूनोदरसो जानी दधिषे वराय देवात्रम् धर्म नेतना यज्ञो मन्त्रो ब्रह्मोद्यतम् वसाः एते विप्रब्रह्मकृतः सुते स चापसूनाम् च वसूनश्च धावने व्रते सुम्नस्य मनसा पदा भूवन्मते सुतस्य सोम्यस्यान्धसः महत्तदुल्भम् स्थवीरम् तदासीद्येनाभिष्ठितः प्रविवेशीथापः विश्वा अपश्यद्बहुधा ते अग्ने जात वेदस्तन्वो देवजेताः कोमादर्शगदमस्तदेवो यो मे तन्वो बहुधा पर्यपश्यत् वाहमित्रावरुणाक्षियन्त्यग्नेर्विश्वास्वमिधो देवजानीः ऐच्छामत्वा बहुधा जात वेदप्रविष्टमग्ने अप्सोषधीषु त्वा यमोऽजिगेच्चित्रभानो दशान्तरुष्यादधिलोचमानम् होत्रादहम् वरुणविद्यादायम् मे देवमायुनजन्नत्र देवाः तस्य मे तन्वो बहुधा निविष्टायेतमर्थम् नचिकेताहमग्निः ये हि मनुर्देवयुर्यज्ञकामो रङ्कृत्यातमशिक्षेष्यग्ने युगान् पतःकृणिः देवजानान्वहव्यानि सुमनस्य मानः अग्नेः पूर्वे भ्रातरो अर्थमेतम् रसीवाद्वानमन्वावरीवुः तस्माद्भिरावरुणदूरमायम् गौरो लक्षेप्नोरविजेद्यायाः कुर्मस्तायुरजरम् यदग्ने यथा युक्तो जातवेदो नरिष्याः असावराजि सुमनस्य मानो भागम् देवेभ्यो हमिषस्तु जात याजान्मे अनुयाजांश्चेव नानूर्जस्वन्तम् हमिषो धत्तभागम् घृतम् चापाम् पुरुषम् चौषधीनामग्नेश्च दीर्घमायूरस्तु देवाः तव प्रजाजा अनुजाजाश्च केवलमूर्जस्वन्तो हविषः सन्तु भागाः तवाग्नेयज्ञो ओजमस्तु सर्वस्तुभ्यम् नवन्ताम् प्रतिसस्यतस्रः विश्वे देवाशासनमायसेह होता मृतो मनभैयन्निषद्य प्रमे ब्रूतभागधेयम् यथा भोजेन पथा हव्यमाभो महानि अहम् होतान्यसीदम् यदीयान् विश्वे देवा मरुतो माजुनन्ति अरारश्विनाध्वर्यमम् वाम् ब्रह्मा समिद्धमधिसाहूतिर्वाम् अयम् यो होदागिरुदयमस्य कमप्यूहे यत्स मञ्जन्ति देवाः अरारहर्जायते मासि मास्य सा देवादधिरेहव्यवाहम् माम् देवादधिरेहव्यवाहमपम् वृत्तम् बहु कृच्छ्राचरन्तम् अग्निर्विद्वान् यज्ञम् नः कल्पयाति पञ्चयामन्त्रिवृतम् सप्तदन्तम् आवो यक्षमृतत्वम् सुवीरम् यथा वो देवापरीभक्कराणि आभाह्वोर्वज्रविन्द्रस्य धेयामसेमा विश्वाः पृतनाजयाति त्रीणि शतात्रिसहस्राण्यज्ञम् त्रंसश्च देवानवदासपर्यन् औक्षम् घृतैरस्त्रेण बलिरस्मादिद्धोता रम्यसादयन्त यमैच्छा मम न सासो ओयमागाद्यज्ञस्य विद्वान्मरुणस्य जित्वान् यक्षद्देवता दागजीयान्निगिडत्सदन्तरः पूर्वो अस्मत् अराधिगोदा निषदायजीयानभिप्रयाम् सुधीतानि हिक्षत् यजामहे यज्ञयान् ग्रन्थदेवान् ईरामहायीर्यान् आज्येन साध्वीमगद्देववीतिम् न अद्य यज्ञस्य जिह्वामविदामगुह्याम् सरासुरभिर्वसा नो भद्रामगद्देवहूतिम् न अद्य तदद्य वाचः प्रथमम् मधीयेनासूराम् अभिदेवा असाम ऊर्जादबुदयज्ञया सः पञ्च जनामम होत्रम् जूषध्वम् पञ्चज नामम होत्रम् जूषन्ताम् गोदाताबुदये यज्ञया सह पृथिवी नः पार्थिवात्मा त्वम् रसोऽन्तरिक्षम् दिव्यात्मा त्वस्मान् तन्वन्रजसो भानुमन्विज्योतिष्मसो रक्षधिया कृतान् अनल्पनम् वा यदजो गो वामपोमनभ्रवजनजाते व्यञ्जनम् अक्षारो न ह्यत लोदसो न्यायिष्क्रीडध्वम् रसनावोतविंसत अष्टावन्धुरम् वहताभितो रसम् येन देवासो अनयन्नभिप्रियम् अस्मन्वतीरीयते संरभध्वमुत्तिष्ठत प्रतारता सखायः अत्राजरामये असन्नसेवा शिवान् भजमुत्तरे माभिवाजाने त्वष्टा मायावे तपसामवस्तमो बिभ्रत्पात्रा देवपानाः निसन्दमा शिशीते नूनम् परसम् स्वायसम् येन वृश्चादेतसो ब्रह्मनस्पतिः सदो नूनम् कवयः संसीसीदमासीभिर्याभिरमृता यदक्षस विद्वांसः पदा गुह्यानि कर्तरयेन देवासो अमृतत्वमानसुः गर्भेजो रामदधर्मत्समासन्यपीच्छेन मनसोदजिह्वया स विश्वाहा सुमना योग्याभिशीषासनिर्वनते कारयुज्जितिम् ताम् सुते कीर्तिम् मघवन्महित्वा यत्वा भीते रोदसी अह्वजेताम् रावो देवाम् आतिरोदासमोदः प्रजायै त्वस्यैयदशिक्ष इन्द्र यदशरस्तन्वा वावृधानो बलानीन्द्र प्रब्रुवानो जनेषु मायेत्सा तेजानि युद्धान्याहुर्नाद्यसत्रम् ननुपुराविवित्से ते महिमनस्रमस्यास्मत्पूर्वर्षयोऽन्तमापुः यन्मातरम् च पितरम् च सागमजन यथास्तन्वा अस्वायाः चत्वारि ते असुर्यानिलामादाभ्यानि महिषस्य सन्ति त्वमङ्गतानि विश्वानि वित्सेयेभिः कर्माणि मघवम् च कथ त्वम् विश्वादधिषे केवलानि यान्याविर्या च गुहावसूनि कामलिङ्गे मघवन्मामितारीस्त्वमाज्ञाता त्वमिन्द्रासि धाता यो अरधाज्योतिषिज्योतिरन्धर्यो असि जन्मधूना संमधूनि अघवत्प्रियम् सूषमिन्द्रायमन्म ब्रह्मकृतो बृहदुःखादवाचि दूरे तन्नामगुह्यम् पराचैर्यत्वा भीते अह्वयेताम् वयोधै उतस्तभ्रात् पृथिवीञ्जामभीते भ्रातुः पुत्रान् मघवन्त्यद्विषाणः महत्तन्नामगुह्यम् पुरस्पृज्ञेन भूतम् जनयोजेन भव्यम् रत्नम् जातम् ज्योतिर्यदस्य प्रियम् प्रियाः समाभिसन्तपम् च आरोदसी अरुणादोदमध्यम् पञ्च देवाङ्ग्रेतुषः सप्त सप्त चतुस्त्रिम् सदा पुरधा वितष्टे स्वरूपेण ज्योतिषा विव्रतेन यदूषाौच प्रथमाभिभा रामजनयोजेन पुष्टस्य पुष्टम् यततेयामित्वमपरम् परस्य महन्महत्या सुरत्वमेकम् विसन्दद्राणम् दमने बहूनाम् जीवानम् सन्तम् परितो जगाद देवस्य वस्य काव्यम् महित्वाद्यापपादसह्य समान चात्मना साको अरुणस्तु ब्रह्मणायो महस्सूरस्तनादनीलः यच्चिकेत सत्यमित्तन्नमोघम् वसस्पार्घमुतजेतो ददाता अयिभिर्दते वृष्ट्यापोंस्यानियेभिरोक्षद्वत्रहत्याय वज्री ये कर्मण क्रियमाणस्य मन्मरे कर्ममुदजायन्त देवाः या कर्माणि जनयन् विश्वौजासस्थिरा विश्वमानास्तु राषाण ीत्वे सोमस्य दिवावृधानस्तूरो निर्युधादमद्रस्यून् इदम् तयेकम् परभूतयेकम् तृतीयेन ज्योतिषा संवेशस्व संवेदने तन्वा अश्चारुरेधि प्रियो देवानाम् परमे जनित्रे ष्टे वाचिन्तन्वा अन्नयन्ती वामभस्मभ्यम् दातु धर्मदुभ्यम् अप्रोदो महो धर्माय देवान् दिवि वज्योतिस्वमामीमीयाः वाच्य दिवाजिनेन सुमेदी सुवितस्तोमम् सुवितो दिवम् गाः सुभितो धर्मप्रथमानो सत्या सुभितो देवान् सुभितो रुमद्वाहिम्नलेढाम् वितरश्च नेधीरे देवा देवेष्वदधुरभिक्रतुम् समाविव्यजुरुतजान्यत्वेषुरैराम् तनोषुनिवेविषुः पुनाः सरोभिर्विश्वम्बरीचक्रमोरजः पूर्वादामान्यमीरामिमानाः ुवनानि ये मिरे प्रासारयन्त पुरुध प्रजा अनु विधासूरवसूरम् स्वर्विधमास्थापयन्त तृतीयेन कर्मणा स्वाम् प्रजाम् पितरप्यत्यम् सहावरेष्वदधस्तन्तु मादतम् नावानक्षोदः प्रतिश पृथिव्या स्वस्तिभिरति दुर्गानि विश्वा स्वाम् प्रजाम् बृहत्तो महित्वारेष्वदधाता परेषु मा प्रगामपसो वयम् मा यज्ञादिन्द्रसोमिनाः माम् द्रष्टुर्नो अरादयः यो यज्ञस्य प्रसादनस्तन्तुर्देवेष्वादतः समाहूतम् नसीमहि मनोन्बाहो वामहेनारा संसेन सोमेन विद्रेणाम् समन्माभिः आदयेतु मनः पुनः क्रत्वे दक्षाय जीवसे योक्तसूर्यम् दृशे पुनर्नः पितरो मनो दधातु दैव्योजनाः जीवम् गातम् सतेमहि अयम् सोमम् व्रते तव मनस्तनोषु बिभ्रतः प्रजावन्वस्य देमहि ओ